ओम नमो भगवते वासुदेवाय। अथ चतुस्त्रिंशोऽध्यायः। श्रीशुक उवाच, एकदा देवयात्रायाम् गोपाला जातकौतुकाः अनोभिरनरुद्युक्तैः प्रययुस्तेऽम्बिकावनम्। तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम् आनर्चुररहणैर्भक्त्या देवीम् च नृपतेऽम्बिकाम्। गावो हिरण्यम् वासांसि मधुमध्वन्नमादृताः। ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति। ऊषुः सरस्वती तीरे जलम् प्रास्य धृतव्रताः। रजनीम् ताम् महाभागानन्दसुनन्दकादयः। कश्चिन्महानहिस्तस्मिन् विविनेति बुभुक्षितः। यदृच्छया गतो नन्दम् शयानमुरगोऽग्रसीत्। स चुक्रोशाहिनाग्रस्तः कृष्णकृष्णमहानयम्। सर्पो माम् ग्रसते तात प्रपन्नम् परिमोचय। तस्य चाक्रन्दितम् श्रुत्वा गोपालाः सहसोत्थिताः। ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुरुल्मुकैः। अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः। तमस्पृशत्पदाभ्येत्य भगवान् सात्वताम् पतिः। स वै भगवतः श्रीमत्पादस्पर्शहताशुभः। भेजे सर्पवपुरहित्वा रूपम् विद्याधरार्चितम्। तमपृच्छदृशीकेशः प्रणतम् समुपस्थितम्। दीप्यमानेन वपुषा पुरुषम् हेममालिनम्। को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथम् जुगुप्सितामेताम् गतिम् वा प्रापितो वशः। सर्प उवाच, अहम् विद्याधरः कश्चित् सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरम् दिशः। ऋषीन् विरूपानङ्गिरसः प्राहसम् रूपदर्पितः। तैरिमाम् प्रापितो योनिम् प्रलब्धैः स्वेन पाप्मना। शापो मेऽनुग्रहायैव कृतस्थैः करुणात्मभिः। यदहम् लोकगुरुणा पदास्पृष्टो हताशुभः। तम् त्वाहम् भवभीतानाम् प्रपन्नानाम् भयापहम्। आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन्। प्रपन्नोऽस्मि महायोगिन् महापुरुषसत्पते। अनुजानीहि माम् देव सर्वलोकेश्वरेश्वर। ब्रह्मदण्डाद्विमुक्तोऽहम् सद्यस्तेऽच्युतदर्शनात्। यन्नाम गृह्णन्नखिलान् श्रोतॄणात्मानमेव च। सद्यः पुनाति किम् भूयस्तस्य स्पृष्टः पदाहिते। इत्यनुज्ञाप्य दाशार्हम् परिक्रम्याभिवन्द्य च। सुदर्शनो दिवम् यातः कृच्छ्रान्नन्दश्च मोचितः। निशाम्य कृष्णस्य तदात्मवैभवम् व्रजौकसो विस्मितचेतसस्ततः। समाप्य तस्मिन् नियमम् पुनर्व्रजम् नृपाययुस्तत्कथयन्त आदृताः। कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः। विजर्रतुर्वने रात्र्याम् मध्यगौ व्रजयोषिताम्। उपगीयमानौ ललितम् स्त्रीजनैर्बद्धसौहृदैः। स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोम्बरौ। निशामुखम् मानयन्ता उदितोडुपतारकम्। मल्लिका गन्धमत्ताली जुष्टम् कुमुदवायुना। जगतुः सर्वभूतानाम् मनःश्रवणमङ्गलम्। तौ कल्पयन्तौ युगपत् स्वरमण्डलमूर्च्छितम्। गोप्यस्तद्गीतमाकर्ण्य मूर्च्छितानाविदन्नृप। स्रंसद्दुकूलमात्मानम् स्रस्तके सस्रजम् ततः। एवम् विक्रीडतोः स्वैरम् गायतो सम्प्रमत्तवत्। शङ्खचूडैति ख्यातो धनदानुचरोऽभ्यगात्। तयोर्निरीक्षतो राजन्स्तन्नाथम् प्रमदाजनम्। क्रोशन्तम् कालयामास दिश्युदीच्यामशङ्कितः। क्रोशन्तम् कृष्णरामेति विलोक्य स्वपरिग्रहम्। यथा गादस्युनाग्रस्ता भ्रातरा वन्वधावताम्। मा भैष्टेत्यभया रावौ शालहस्तौ तरस्विनौ। आसेदतुस्तम् तरसा त्वरितम् गुह्यकाधमम्। सवीक्ष्यतावनुप्राप्तौ कालमृत्यौ इवोद्विजन्। विसृज्य स्त्रीजनम् मूढः प्राद्रवज्जीवितेच्छया। तमन्वधावत् गोविन्दो यत्र यत्र स धावति। जिहीर्षुस्तच्छिरोरत्नम् तस्थौ रक्षन् स्त्रियो बलः। अविदूरैवाभ्येत्य शिरस्तस्य दुरात्मनः। जहारमुष्टिनैवाङ्ग सह चूडामणिम् विभुः। शङ्खचूडम् निहत्यैवम् मणिमादाय भास्वरम्। अग्रजाया ददात् प्रीत्या पश्यन्तीनाम् च योषिताम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।